एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्रे रत्नावली शर्मा। रोल्पा जनपदस्य थवांग वर्तिनी जलजला स्थाने जीपयानस्य दुर्घटनायां 20 जना मृता सन्ति। रूकुम पूर्व स्थानात् जलजला स्थाने बुद्ध पूर्णिमाया मेला पके गच्छद्भि यात्रिभि युक्तम जीपयानम रोल्पा जनपदस्य थवांग ग्रामपालिकाया जलजला स्थाने दुर्घटितम सत् 20 जना मृता सन्ति इति रोल्पा जनपदस्य प्रहरी प्रमुख वीरेन्द्र विश्वकर्मा अज्ञापयत्। अधुनावधि मृतकानां सत्यापनम सम्भूतम नास्ति। दुर्घटनायां रूकुम पूर्व जनपदस्य सिस्ने ग्रामपालिकाया 32 वर्षीय समीर कामी आहतोस्ति। जीपयानम मार्गात आसन नाष्ट शत मीटर मितम अध पतितम आसीदिति थवांग स्थानीय प्रहरी कार्यालयेन ज्ञापितम वर्तते। अत्रान्तरे गृह मन्त्रालयेन ह्य सम्भूताया जीपयान दुर्घटनाया अनुसन्धानाय समिति संघटिता अस्ति। एवमेव कपिलवस्तु नगरपालिकाया निग्लिह वा स्थाने दूरापन्नायां यान दुर्घटनायां 29 जना आहता वर्तन्ते। अद्य वैशाख शुक्ल पूर्णिमायां तिथौ सप्तत्युत्तर 25 शततमा बुद्ध जयन्ती समायोज्यमाना अस्ति। नेपालस्य मध्यपश्चिम क्षेत्रस्थ तराई प्रदेशे अवस्थितायां लुम्बिन्यां शाक्य वंशीय राजस्य शुद्धोदनस्य राज्ञः माया देव्याश्च पुत्रस्य रूपेण वैशाख शुक्ल पूर्णिमायां लब्धजन्मा राजकुमारः सिद्धार्थः बोधगया स्थाने ज्ञानस्य सम्प्राप्तेः अनन्तरं गौतम बुद्धस्य नाम्ना लोकविश्रुतः अभवत्। ज्ञान प्राप्ति महापरिनिर्वाण सदृश्य तेस्रो घटना वैशाख शुक्ल पूर्णिमायामेव अभवन् इत्यतः तिथिरियं बुद्ध जीवनस्य अपूर्व संयोगस्य रूपेण मन्यते। एशिया महादेशस्य ज्योतिः इति उपाधिना विख्यातः भगवान गौतम बुद्धः 80 वर्षाणां वयसि भारतस्य कुशीनगरे महापरिनिर्वाणं प्रापत्। भगवता गौतम बुद्धेन प्रतिपादितः धर्मोपदेशः नेपाले भारत चीन श्रीलंका म्यान्मार थाईलैंड लाओस कम्बोज कोरिया भियतनाम भूटान जापान कोरिया मंगोलिया प्रभृति देशेष् विश्वस्य अन्येष् विधेष् राष्ट्रेष् च बुद्ध धर्मस्य रूपेण विस्तारिताः सन्ति। हिन्दू धर्मानुसारेण बुद्ध भगवतो विष्णुः नवमावतारस्य रूपेण समाद्रीयते। बुद्ध जयन्त्याः उपलक्ष्ये अद्य बुद्ध जन्मभूमौ लुम्बिनी क्षेत्रे नेपालस्य विविधेष् मठ बौद्ध विहारेष् च धार्मिक समारोहाः समायोज्यमानाः सन्ति। वैशाख शुक्ल पूर्णिमाया दिने अद्यैव किरात धर्मावलम्बिभि उभौली पर्व समायोज्यमानमस्ति। उभौली पर्व किरात धर्मावलम्बिनां सर्वापेक्षया महत्वपूर्णं पर्व वर्तते। अन्नानाम उत्पादनं सम्यक् भवतु इति प्रकाम्य अस्मिन् दिने भूमेः प्रकृतेश्च पूजनस्य परम्परापि किरात धर्मे वर्तते। अस्मिन् दिने पक्षिणः वन्यजन्तवश्च आतापस्य शमनाय शीतक्षेत्रम् अन्विष्य उपरि पर्वत प्रदेशं गच्छन्तीति च विश्वासोऽस्ति। अतश्च किरात समुदायेन वैशाख शुक्ल पूर्णिमायां उभौली नाम्ना पर्व समाद्रीयते चेत् ते एव पक्षिणः वन्यजन्तवश्च मार्ग शुक्ल पूर्णिमायां शैत्य शमनाय पुनः आतापक्षेत्रम् अन्विष्य अधः समतल भूप्रदेशं प्रति गच्छन्ति इति मार्गशीर्ष पूर्णिमायां उधौली नाम्ना पर्व समाद्रीयते। वैशाख शुक्ल पूर्णिमा चण्डी पूर्णिमा इति च कथ्यते। अतः अस्मिन् दिने चण्डी नृत्यस्य परम्परा किरात धर्मे अस्ति। तथैव अस्मिन्नेव दिने सनातन धर्मावलम्बिभि जनै चण्डेश्वरी यात्रा कुर्म जयन्ती गुरु गोरखनाथ जयन्ती चेति नैकानि पर्वाणि समायोज्यमानानि सन्ति। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन विभिन्नानां दलानां नेतृभिश्च बुद्ध जयन्त्याः उभौली पर्वणस्य अवसरे शुभकामना सन्देशं प्रयच्छद्भि सम्पूर्ण नेपालीनां मध्ये परस्परं एकता सहयोग सद्भावान् अभिवर्ध्य सभ्यस्य सुसंस्कृतस्य समृद्धस्य च समाजस्य निर्माणाय अग्रेसरा भवितुं सर्वेभ्य प्रेरणां ददातु इति शुभकामना अभिव्यक्ता अस्ति। अद्य मे मासस्य प्रथमे दिने 37 अन्तर्राष्ट्रिय श्रमिक दिवस विविधै कार्यक्रमै सह समायोज्यमानोऽस्ति। अष्टौ घण्टा कार्यम् अष्टौ घण्टा मनोरञ्जनम् अष्टौ घण्टा विश्रामश्च इति समाघोषेण सह श्रमिकै विहितस्य आन्दोलनस्य 37 व्यतीतानि सन्ति। श्रमिक दिवसस्य सन्दर्भे अद्य नेपालेऽपि विभिन्नै श्रमिक संघ संगठन ही नैकान कार्यक्रमान आयोज्य श्रमिकाणाम समस्याया विषय विमर्शनम विधीयमानमस्ति। तथैव सप्तत्रिंशदधिक शततम श्रमिक दिवसस्य अवसरे समग्रे देशे विभिन्न कार्यक्रम समायोज्यमान सन्ति। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन विभिन्नानां दलानां नेतृभिश्च अन्तर्राष्ट्रिय श्रमिक दिवसस्य अवसरे शुभकामना सन्देशं प्रदत्तमस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन एतद् विक्रमवर्षीय सहकारी सम्बद्ध प्रथम संशोधनाध्यादेश क्रियान्वितोऽस्ति। मन्त्री परिषद परामर्शेन नेपालस्य संविधानस्य चतुर्दशोत्तरैकशततमाया धाराया प्रथमोपधाराया अनुसारेण ह्य अध्यादेशोऽयं क्रियान्वितोऽस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। एवमेव राष्ट्रपतिना पौडेलेन ह्य एव सार्वजनिक क्रयण सम्बद्ध एतद् विक्रमवर्षीय अध्यादेश क्रियान्वितोऽस्ति। त्रिभुवन विश्वविद्यालयस्य त्रिभि पदाधिकारिभि स्वपदात्यागपत्रं दत्तमस्ति। उपकुलपतिना प्राध्यापकेन डा दीपक अर्यालेन शिक्षाध्यक्षेन प्राध्यापकेन डा खड्ग केसी तेनेन कुलसचिवेन प्राध्यापकेन डा केदार रिजालेन च ह्य त्यागपत्रं दत्तमस्ति। नवीनस्य सर्वकारस्य कार्यसारल्याय त्यागपत्रं प्रदत्तमस्तीति शिक्षाध्यक्ष प्राध्यापक केसी असूचयत्। विपक्षी दलहि मूल्यवृद्धे आपणेषु अव्यवस्थायाः महार्घस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितमस्ति। नेकपाएमाले दलस्य संसदीय दलस्य कार्यालये ह्य उपविष्टेन विपक्षीदलानां प्रमुखसचेतकपदीयानाम् उपवेशेन भूमिहीनानां जनानां समस्यानां महार्घस्य नियन्त्रणस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितमस्ति। उपवेशेन दैनिकोपभोग्यवस्तुषु मूल्यवृद्धि सम्भूतास्तीति उल्लिख्य आपणेषु विद्यमानायाः अवस्थायाः नियन्त्रणाय आपूर्तिव्यवस्थायाः सहजतायै च सर्वकारेण सह याचना विहिता अस्ति। इति समाचारः।